तृतीय स्कंध
अथ एकादशोध्याय मन्वंतरादि काल विभाग का वर्णन। मैत्रेय उवाच चर्मः सद्विशेषाणाम् अनेको संज्ञितः सदा परमाणुः सविज्ञेयो नृणामैक्य भ्रमो जतः सत एव पदार्थस्य स्वरूपावस्थितस्य यत् कैवल्यम् परमहान् अविशेषो निरन्तरः एवं कालोऽप्यनुमितः सक्ष्मे स्थौल्ये च सत्तमा संस्थान भुक्त्वा भगवान् अव्यक्तो व्यक्तभुग् विभुः स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् सतो विशेषभुग्यस्तु स कालः परमो महान् अणुर्द्वौ परमाणुस्यात्र श्रेणुस्त्रयः स्मृतः जालार्करश्म्यवगतः खमेवानुपतन्नगात् त्रश्रेणुस्त्रिकम् भुङ्क्ते यः कालः स त्रुटिर्स्मृतः शतभागस्तु वेदः स्यात् तैस्त्रिभिस्तु लवः स्मृतः निमेषस्त्रीलवो ज्ञेय आम्नातस्ते त्रयः क्षणः क्षणान् पञ्चविदुः काष्ठाम् लघुता दशपञ्च च लघूनि वै समाम्नाता दशपञ्च च नाडिका त्वेदे मुहूर्तः प्रहर षड्यामः सप्त वा नृणाम् द्वादशार्धपलोन्मानम् चतुर्भिश्चतुरङ्गुलैः स्वर्णमासः कृतच्छिद्रम् यावत् प्रस्थजलप्लुतम् यामाश्चत्वारश्चत्वारो मर्त्या नाम हनि उभे पक्षः पञ्चदशहानि शुक्लः कृष्णश्च मानद तयोः समुच्चयो मासः पितॄणाम् तदहर्निशम् द्वौ तौ ऋतुः षडयनम् दक्षिणम् चोत्तरम् दिवि अयने चाहनि प्राहुर्वत्सरो द्वादश स्मृतः संवत्सरशतम् नृणाम् परमायुर्निरूपितम् ग्रहक्षतारा चक्रस्थ परमाण्वादिना जगत् संवत्सरावसानेन पर्यत्य निमिषो विभुः संवत्सरः परिवत्सर इडावत्सर एव च अनुवत्सरो वत्सरश्च विदुरैवम् प्रभासते यः सृज्य शक्तिमूर्धो श्वसयन् स्वशक्त्या पुंसो भ्रमाय द्विविधावति भूतभेदः कालाख्यया गुणमयम् कतुभिर्वितन्वंस्तस्मै बलिम् हरतवत्सरपञ्चकाय विदुर्वाच पितृदेव मनुष्याणाम् आयुः परमिदम् स्मृतम् परेषाम् गतिमाचक्ष्व ये स्युः कल्पाद् बहिर्विदः भगवान् वेदकालस्य गतिम् भगवतो ननु विश्वम् विचक्षते धीरा योगराधेन चक्षुषा। मैत्रे उवाच कृतम् त्रेता द्वापरम् च कलिश्चेति चतुर्युगम् दिव्यैर्द्वादशभिर्वर्षैः सावधानम् निरूपितम् चत्वारि त्रीणि द्वे चैकम् कृतादिषु यथा क्रमम् सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च सन्ध्यांसयोरन्तरेण यः कालः शतसङ्ख्ययोः तमेवाहुर्युगम् तज्ज्ञा यत्र धर्मो विधीयते धर्मश्चतुष्पान् मनुजान् कृते समनुवर्तते स एवान्येष्वधर्मेण व्येतिपादेन वर्धता त्रिलोक्याजुगसाहस्रम् बहिरा ब्रह्मणो दिनम् तावत्येव निशातात् जन्नि मिलति विश्वदृक् निशावसाने आरब्धो लोककल्पोऽनुवर्तते यावद्दिनम् भगवतो मनुन्भुञ्जन् चतुर्दश स्वम् स्वम् कालम् मनुर्भुङ्क्ते साधिकाम् ह्येकसप्ततिम् मन्वन्तरेषु मनुवस्तद्वंश्यारिषयः सुरः भवन्ति चैव जुगपत् सुरेशाश्चानुये च तान् एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः त्रियङ्पितृदेवानाम् सम्भवो यत्र कर्मभिः मन्वन्तरेषु भगवान् बिभ्रत्सत्त्वम् स्वमूर्तिभिः मन्वाद्भिरिदम् विश्वम् अवत् उदितपौरुषः। तमो मात्रामुपादाय प्रतिसंवृद्ध विक्रमः काले नानुगता शेष आस्ते तुष्णीं दिनात्यये तमेवान्नपिधीयन्ते लोका भूरादयस्त्रयः निशायामनुवृत्तायां निर्मुक्त शशिभास्करम् त्रिलोक्यां दह्यमानायां शक्त्या संकर्षणाग्निना जान्त्युष्मडामहर्लोका जनं भृग्वादयोर्दिताः तावत्त्रिभुवनं सद्यः कल्पान्तयधितसिन्धवः प्लावयन्तुत्कटाटोपचण्डवातेरितोर्मयः अन्तः सतस्मिन् सलिल आस्तेऽनन्तासनो हरिः योगनिद्रानिमीलाक्ष स्तूयमानो जनालयैः एवं विधैरहोरात्रै कालगत्योपलक्षितैः अपक्षितमिवास्यापि परमायुर्वयः शतम् यदर्धमायुषस्तस्य परार्धमभिधीयते पूर्वः परार्धोऽपक्रान्तो ह्यपरोद्य प्रवर्तते पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् कल्पो यत्रा भवद्ब्रह्म शब्दब्रह्मेति यं विदुः तस्यैव चान्ते कल्पोभूद् यं पद्ममभिचक्षते यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् अयं तु कथितः कल्पो द्वितीयस्यापि भारत वाराह इति विख्यातो यत्रासीत् सुकरो हरिः कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते अव्याकृतस्यानन्तस्य अनादेर्जगदात्मनः कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईश्वरः नैवेशितुं प्रभुर्भुम्न ईश्वरो धाममानिनां विकारैः सहितो युक्तैर्विशेषादिभिरावृतः अण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः दशोत्तराधिकैर्जत्र प्रविष्टः परमाणुवत् लक्षितेऽन्तर्गताश्चान्ये कोटिशो यण्डराशयः तदाहुरक्षरं ब्रह्म सर्वकारणकारणं विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितां तृतीयस्कन्धे एकादशोऽध्यायः।